अस्तु मंगलाचरणं कुर्मः येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां कुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो ओं नमः पाणिनि कात्यायन पतञ्जलिभ्यः शब्दविद्या संप्रदाय प्रवर्तकेभ्यः मुनिभ्यः नमो महद्भ्यः नमो गुरुभ्यः पूर्वस्यां कक्षायाम् अस्माभिः मुखनासिका वचनोनुनासिकः इति सूत्रस्य अभ्यासः कृतः. तत्र वयम् अकारस्य अष्टादश भेदाः भवन्ति इति अस्माभिः ज्ञातम्. अष्टादश भेदानां विषये अस्माभिः तत्र कथं लेखनीयम्, अष्टादश भेदानां स्वरूपम्, अकारस्य स्वरूपं कीदृशं भवति इत्युक्ते कथं भवति इति अस्माभिः किञ्चित् अभ्यासः कृतः, स एव अत्र प्रदर्श्यते. प्रथमं तत्र ह्रस्व अकारः अनुनासिकसहितः अकारः उदात्तः, यतो हि कोऽपि स्वरसंज्ञा नास्ति, कोऽपि संज्ञा संज्ञा वा तत्र सिम्बल् नास्ति चेत् स्वरस्य उदात्तः इति ज्ञातव्यम्. एवं ह्रस्व उदात्त अनुनासिक अकारः, ह्रस्व उदात्तः अननुनासिक अकारः, एवमेव ह्रस्व अनुदात्त अनुनासिक, ह्रस्व अनुदात्त अननुनासिक, ह्रस्व अनुनासिकस्वरित, ह्रस्व अननुनासिकस्वरित, एवमेव दीर्घस्यापि प्लुतस्यापि. सर्वैः अवगतं वा तत्र बहवः तत्र नावगतम् इति उक्तवन्तः तस्मिन् दिने. सर्वैः अवगतं वा? कोदण्डरामन् महोदयः अवगतं वा? अस्तु अस्तु. एतदेव अष्टादशभेदाः. एवमेव इकारस्यापि लेखनीयः, उकारस्यापि लेखनीयः. तत्र अभ्यासः करणीयः अस्माभिः. इदानीम् अग्रे गच्छामः. तत्र वर्णमालाविषये अस्माभिः किञ्चित् ज्ञातव्यम् इति मया चिन्तितम्. महादेवन् महोदयः प्रश्नं पृच्छति, लृकारस्य प्लुतम् अस्ति वा? या लृकारस्य दीर्घः नास्ति, प्लुतः अस्ति. वर्णमालाविषये अस्माभिः किञ्चित् ज्ञातव्यम्. तत्र एकं चार्ट् अस्माभिः अत्र प्रदर्शितम्. तत्र त्रिषष्टि चतुष्षष्टिवर्णाः शम्भुमते मताः इति एकं संशोधनात्मकं लेखनं सम्भाषणसन्देशपत्रिकायां महावैयाकरणज्येष्ठानां महाबलेश्वरभट्टानाम् एकं लेखनम् आगतम् आसीत्. तस्मात् लेखनात् अपि च एतदुक्त्यनुसारेण, त्रिषष्टि चतुष्षष्टि वा वर्णाः शम्भुमते मताः इति उक्त्यनुसारेण, कथं चतुष्षष्टिवर्णाः संस्कृतभाषायां भवन्ति, त्रिषष्टि वा चतुष्षष्टिवर्णाः कथं भवति, के वर्णाः ते इति अस्माभिः एकं बालकानां कृते एकं स्फोरकम् इत्युक्ते चार्ट् कृतम् अस्माभिः तदेव अत्र प्रदर्श्यते अस्माभिः एतत्तु ज्ञायते स्वराः ह्रस्वदीर्घप्लुताः स्वराः ह्रस्वदीर्घप्लुतात्मकभेदाः तत्र ऊकालोज् ह्रस्वदीर्घप्लुतः इदानीम् अस्माकं सूत्रमपि ज्ञायते ह्रस्वो नाम कः इत्युक्ते एकमात्रो भवेत् ह्रस्वः द्विमात्रो दीर्घ उच्यते त्रिमात्रस्तु प्लुतो ज्ञेयः व्यञ्जनं अर्धमात्रकम् इति लौकिकम् एकं श्लोकं विद्यते परन्तु अस्माभिः सूत्रम् अधीतम् ऊकालोज् ह्रस्वदीर्घप्लुतः यथा कुक्कुटः यथा प्रातःकाले यथा ध्वनिं करोति तथैव ऊकारस्य ऊकारस्य ऊप्लुतस्य तथैव अकारस्यापि इकारस्यापि ह्रस्वदीर्घप्लुताः भवन्ति इति अस्माभिः ज्ञातम् ऊकालोज् ह्रस्वदीर्घप्लुतसूत्रस्य अध्ययनसमये इदानीम् तस्यानुसारं द्वाविंशतिस्वराः भवन्ति अकारस्य ऋकारस्य दीर्घः अस्ति ऋकारस्य दीर्घः नास्ति लिकारः इत्येव वक्तव्यं दीर्घः नास्ति प्लुतः अस्ति एवं द्वाविंशतिस्वराः तत्र स्वराः इत्युक्ते स्वयं राजन्ते इति स्वराः व्यञ्जनानि इत्युक्ते अन्वग्भवति इति व्यञ्जनम् अन्वग्भवति इति व्यञ्जनम् इत्युक्ते अच् धर्मम् अन्वग्भवति अच् धर्मम् अनुसरति इति व्यञ्जनम् एवं वर्गीयव्यञ्जनानि अवर्गीयव्यञ्जनानि एतत्तु सर्वैः ज्ञायते तत्र अवर्गीयव्यञ्जनानि मध्ये लकारः यदि युज्यते चेत् तर्हि एकम् अधिकं भवति एवं मृदुव्यञ्जनानि कर्कशव्यञ्जनानि तत् अवान्तरभेदः तदपि अस्माभिः ज्ञातव्यं तदपि ज्ञायते ये तत्र स्वराणां वा व्यञ्जनानां मध्ये न अन्तर्भवन्ति ते एव अयोगवाहाः योगं विना एतेषां प्रयोगं वाहयन्ति इति अयोगवाहाः कुत्र योगः नास्ति इत्युक्ते माहेश्वरसूत्राणाम् एतेषाम् उल्लेखः नास्ति अनुस्वारस्य विसर्गस्य जिह्वामूलीयस्य उपध्मानीयस्य उल्लेखः माहेश्वरसूत्रेषु नास्ति अतः ते न विद्यते योगः यत्र इत्युक्ते तत्र माहेश्वरसूत्रे एतेषां योगः नास्ति अतः अयोगवाहाः तथापि तेषाम् उपयोगः वर्णेषु क्रियते अतः अयोगवाहाः इति ते कथ्यन्ते अनुस्वारः विसर्गः जिह्वामूलीयः उपध्मानीयः तत्र जिह्वामूलीयः इत्युक्ते कखाभ्यां प्राक् अर्धविसर्गसदृशः जिह्वामूलीयः पफाभ्यां प्राक् अर्धविसर्गसदृशः उपध्मानीयः इति उच्यते इदानीं तत्र यमाः इति केचन वर्णाः सन्ति ते तु तत्र वेदेपि विरलाः प्रथमवर्णत्वयमः द्वितीयवर्णत्वयमः तृतीयवर्णत्वयमः चतुर्थवर्णत्वयमः इति सन्ति चत्वारः यमाः इत्युक्ते असिक्कनि चखनधुः अग्निः इति घ्नन्ति इत्यादि प्रयोगः तत्र चतुर्थवर्णात्मकयमः मीना महोदया पृच्छति योगं विना प्रयोगः किं न अयोगवाहाः इति शब्दस्य व्युत्पत्तिः कथम् इत्युक्ते तत्र स्वयं राजन्ते इति स्वराः अन्वग्भवति इति व्यञ्जनम् अन्वग्भवति इत्युक्ते अच् धर्मम् अनुसरति तत्र स्वराणां मध्ये अपि येषाम् अन्तर्भावः नास्ति व्यञ्जनानां मध्ये अपि येषाम् अन्तर्भावः नास्ति ते एव अयोगवाहाः स्वराणां मध्ये व्यञ्जनानां मध्ये अन्तर्भावः नास्ति इत्युक्ते कुत्र मातृकापाठे वा माहेश्वरसूत्रे वा इति संशयः भविष्यति. मातृकापाठे तु वयम् अम् अह ए ऐ ओ औ अम् अह इति अवश्यं वदामः, तत्र अन्तर्भावः अस्ति किल इति प्रश्नः आगच्छति. तदा उच्यते माहेश्वरसूत्रेषु येषाम् अन्तर्भावः नास्ति अतः एतेषां नाम अयोगवाहाः इति आगतम्, तत्र युत्पत्तिरीत्या मया उक्तम्. यमाः यमाः चत्वारः यमाः चत्वारः यमाः प्रथमयमः द्वितीयमः एतदस्ति. इदानीं चतुष्षष्टिवर्णाः आगताः, एतत् किञ्चित् अस्माभिः ज्ञातव्यम्, अग्रिमपाठस्य विषये उपयोगः भवति. तत्र अवर्गीयव्यञ्जनानां मध्ये अन्तस्थाः ऊष्माणः इति अस्ति, य यर लव एते अन्तस्थाः, शाशासाः एते ऊष्माणः इति वदन्ति. वर्गीयव्यञ्जनानां मध्ये अल्पप्राण महाप्राण अनुनासिक आनि इत्यपि अस्ति. इदानीं स्पर्शाः इत्युक्ते किम्, कुत्र अस्ति स्पर्शाः, अस्मिन् चित्रे अस्ति वा, अस्मिन् चार्ट् मध्ये तु नास्ति स्पर्शाः, अत्र नास्ति. ओ स्पर्शाः वर्गीयव्यञ्जनानां स्पर्शाः इति नाम अस्ति, तत् किमर्थम् इत्येव तुल्यास्य प्रयत्नं सवर्णं सूत्रे तत्सर्वं विवृणोमि, अवश्यम् अग्रे विवृणोमि. तुल्यास्य प्रयत्नं सवर्णम् एतदग्रिमं सूत्रम्. यमाः इस् नाट् क्लियर्, यमाः नाट् क्लियर् टु मी आल्सो. तत्र मीना भगिनी उक्तव पृच्छति यमाः इस् नाट् क्लियर्, नाट् क्लियर् टु मी आल्सो. तत्र यमाः एतेषां प्रयोगदर्शनेनैव तत् ज्ञायते. किम् इत्युक्ते प्रथमवर्णत्वयमः, इदानीम् अत्र असिक्कनीति तत्र प्रयोगः, ककारः प्रथमवर्णत्वयमः इति उच्यते. तत्र अत्र ककारः उपरि तत्र सिम्बल् अस्ति किल, अयमेव प्रथमवर्णत्वयमः इति उच्यते. प्रथमवर्णत्वयमः इत्युक्ते अन्येन प्रथमवर्णेन संयुक्ताक्षररूपेण आगच्छति प्रायः, संयुक्ताक्षररूपेण प्रायः आगच्छति. किमर्थं तादृशप्रयोगः इत्युक्ते तत्र वेदे कश्चित् प्रयोगः अस्ति, अत्र प्रयोगः अपि उदाहरणरूपेण तस्मिन् लेखने आसीत्. असिक्कनि चखन्नथुः अग्निः गृह्णन्ति इति वेदे अस्ति. एतेषां प्रयोगानुसारेण यमः तेषां किं तत्र पृथग् व्यवस्था करणीया इति तत्र वैयाकरणैः चिन्तयित्वा यमाः इति स्थापितम्. तत्र पुनः अत्र किं तत्र विशेषः इत्युक्ते एतत् सर्वं व्याकरणे नास्ति, एतत् सर्वं शिक्षाशास्त्रे अस्ति. शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं तथा इति अस्ति किल, शिक्षाशास्त्रे एतानि सर्वाणि विवृतानि. अतः शिक्षाशास्त्रं किञ्चित् सम्यक् अधीत्य एव एतस्य विवरणं कर्तव्यम्. अन्यदपि अस्ति तत्र, रमणशर्मा महोदयः इति एकः महान् व्यक्तिः एकः अस्ति, सः तत्र वेदविज्ञानगुरुकुले पठितवान्, इदानीं नेरूर् मध्ये अस्ति. सः मम सुहृदस्ति, इदानीं सुपरिचितः. सः शास्त्रज्ञः, मीमांसाशास्त्रज्ञः, विशेषतः न्यायशास्त्रज्ञोऽपि. आधुनिकचिन्तनरीत्या सः सर्वं चिन्तयति. सः किञ्चित् शोधग्रन्थम् एकं लिखितवान् वेदविज्ञानगुरुकुले, सः पूर्वं पठितवान्, सः एकं शोधग्रन्थं लिखितवान् शिक्षा क्लृप्तिः इति. तस्य शोधग्रन्थस्य पठनं कर्तव्यं तदिदानीं पब्लिकेशन् मध्ये अस्ति वा नास्ति वा इति अहं विचारयामि सः यदि अङ्गीकरोति चेत् किञ्चित् अग्रिम कक्षासु एतस्य विषये किञ्चित् तस्य सकाशे किञ्चित् सम्यक् ज्ञात्वा अहम् अवश्यं वदामि तत्र यमानां विषये इत्यादिकम् अल्पप्राणमहाप्राण किं भेदः तदग्रे आगच्छति अवश्यं वक्ष्यामि लृकारस्य दीर्घो नास्ति प्लुतो अस्ति अस्तु अस्ति यमाविषये यत्तत्र लिखितं तत् कृपया पठतु असिक्कनि चक्खनतुः तत्र यमानां विषये किमपि तत्र किं लिखितम् इत्युक्ते वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः इति अस्ति अस्तु इदानीं यमानां विषये विशेषः चर्चा क्रियते चेत् स एव एकघण्टा भविष्यति तदहमपि सम्यक् न जानामि अतः अग्रिमकक्षायां वा कक्षाद्वयानन्तरं वा किञ्चित् विशेषतया ज्ञात्वा अहम् अवश्यं वदामि तद्विषये इदानीं चतुष्षष्टिवर्णाः सन्ति एतेषां विभागः एवमस्ति इति ज्ञात्वा अग्रे गच्छामः तुल्यास्य प्रयत्नं सवर्णम् इति एकं सूत्रमस्ति तत्र पदच्छेदः एवमस्ति तुल्यास्य प्रयत्नं सवर्णम् इति पदद्वयात्मकं सूत्रं तुल्यास्य प्रयत्नम् इति प्रथमाविभक्ति एकवचनं सवर्णम् इति प्रथमाविभक्ति एकवचनं अस्ति तुल्यास्य प्रयत्नम् इति समस्तपदम् अस्ति तस्य समस्तपदस्य विग्रहः अग्रे वयं जानीमः एतत् संज्ञासूत्रमस्ति किं संज्ञां विदधाति सवर्णसंज्ञां विदधाति अस्य सूत्रार्थः कः इत्युक्ते तुल्य आस्य प्रयत्नम् तुल्य आस्य प्रयत्नं सवर्णम् सवर्णं नाम किम् इत्युक्ते ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च इति एतत् द्वयं यस्य येन तुल्यं तन् तत् मिथः सवर्णसंज्ञा स्यात् अस्माभिः सावधानतया पठितव्यं तत्र पुस्तकं स्वीकरोतु सावधानतया पठतु ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः इति द्वयं किञ्चित् विषयद्वयमस्ति यदि एकस्य वर्णस्य ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः इति एतद्विषयद्वयं यदि तुल्यं समानं भवति तदा एकः वर्णः अन्यस्य सवर्णः इति उच्यते अन्यः वर्णः अन्यस्य सवर्णः इत्युक्ते परस्परं मितः इत्युक्ते परस्परं ते सवर्णसंज्ञकाः भवन्ति इति सूत्रार्थः इदानीं स्थानं नाम किं ताल्वादिस्थानं नाम किम् आभ्यन्तरप्रयत्नः नाम किम् एतत् सर्वं वयं जानीमः अत्र स्थानम् एकवारं अत्र समासं तुल्यास्य प्रयत्नम् इत्यस्य समासं ज्ञात्वा अग्रे गच्छामः तुल्यास्य प्रयत्नम् इत्यत्र आस्ये भवम् आस्यम् आस्ये भवम् आस्यम् आस्यं नाम वदनम् आस्ये भवम् आस्यम् अत्र आस्यञ्च प्रयत्नश्च आस्त्यप्रयत्नौ तुल्यौ आस्यप्रयत्नौ यस्य वर्णजालस्य तत् तुल्यास्य प्रयत्नम् यदा तुल्यास्य प्रयत्नं भवति तदा सवर्णसंज्ञा इति उच्यते स एव सवर्णसंज्ञा उच्यते അസ്മാഭിഹി ആസ്യം നാമ കിം ഓഷ്ഠാത് കാക്കലപര്യന്തം, ഓഷ്ഠാത് കാക്കലപര്യന്തം സ്ഥാനം ആസ്യം ഇതി ഉച്യതേ. ഇതാനും അത്ര ചിത്രം പശ്യതോ, ഓഷ്ഠാത് കാക്കലപര്യന്തം, കാക്കല ഇത്യുക്തേ ത്രോട്ട്, ബോട്ടം ഓഫ് ദി ത്രോട്ട്, കണ്ഠപര്യന്തം. ഓഷ്ഠാത് കാക്കലപര്യന്തം കിമിതി ഉച്യതേ, ഓഷ്ഠാത് കാക്കലപര്യന്തം ആസ്യം ഇതി ഉച്യതേ. ആസ്യേ ഭവം ആസ്യം, ആസ്യേ കിം ഭവതി വർണഃ ഭവതി, വർണഃ കഥം ഭവതി ഇദാനിം പശ്യാമഃ. യത്നേന ഭവതി, സഹ യത്നഃ കീദൃശഃ തദേവ ഉച്യതേ അഗ്രേ. ഓഷ്ഠാത് കാക്കലപര്യന്തം ആസ്യം ഇതി ഉച്യതേ. ആസ്യേ ഭവം ആസ്യം, ആസ്യേ കിം അസ്തി, ആസ്യേ താൽവാദിസ്ഥാനാനി സന്തി. ഇദാനിം കാനി താനി സ്ഥാനാനി, എതാനി ഏവ വർണോത്പത്തി സ്ഥാനാനി ഇതി ഉച്യന്തെ. അത്ര കണ്ഠ താലു മൂർധ ദന്ത ഓഷ്ഠൌ നാസിക ഇതി സ്ഥാനാനി സ്ഥാനശക്കം അസ്തി. ഇദാനിം തസ്മിൻ വിഷയെ ഏതത് ചിത്രം പശ്യതോ, വൺ ഇതി അസ്തി കണ്ഠ, ടു ഇതി അസ്തി മൂർധ, മൂർധ ഇത്യുക്തേ ശിരഹ, ശിരഹ ഏവ പരന്തു അത്ര ഊർധ്വഭാഗഃ, ആസ്യേവ അസ്തി തത്. താലു ദന്തഃ ഓഷ്ഠൌ ജിഹ്വാമൂലം, ഏതേ ഏവ സ്ഥാനാനി. ഇദാനീം സമ്യക് പശ്യന്തോ ചിത്രം, വൺ ഇതി അസ്തി കില സ ഏവ കണ്ഠഃ, ടു ഇതി അസ്തി ചേത് മൂർധ, ത്രീ ഇതി യദസ്തി ചേത് താലു, തത് ആംഗ്ലഭാഷായാം പാലറ്റ് ഇതി വദന്തി, ചത്വാരി തത്ര ദന്തഃ, ദന്തഃ ഇത്യുക്തേ ദന്തഃ ഓഷ്ഠൌ ജിഹ്വാമൂലം, ജിഹ്വാമൂലം ഷട്, ജിഹ്വാമൂലം അത്ര അസ്തി ജിഹ്വാമൂലം, തത് ഡാട് അസ്തി സമ്യക് പശ്യതു. ഡെന്റൽ ഇത്യുക്തേ ദന്തഃ. ഇദാനീം ഏതത് ജ്ഞാത്വാ ഇദാനീം പുനഃ അത്ര ആഗച്ഛാമഃ. വർണോത്പത്തി സ്ഥാനാനി ഏതേ ഏവ. ഇദാനീം കഹ വർണഃ കുത്ര ഉദ്ഭവതി ഇത്യാദി ശിക്ഷാശാസ്ത്രേ പാണിനി ശിക്ഷായാം സൂത്രാണി സന്തി. ഏതദപി തത്ര സുരസരസ്വതി പരീക്ഷാ മധ്യെ, പ്രഥമ പരീക്ഷാ മധ്യെ അപ്പി അസ്തി. അകൂഹ വിസർജനീയാനാം കണ്ഠഃ, ഏതത് കിഞ്ചിത് അസ്മാഭിഹി കണ്ഠസ്ഥീകരണീയം ഭവതി. ഇചു യശാനാം താലു, ഋതുരസാനാം മൂർധ, ഋതുലസാനാം ദന്താഃ, ഉതുപദ്മാനീയാനാം ഓഷ്ഠൌ, യമഗണനാനാം നാസികാ ച, ഏതൈതോഃ കണ്ഠതാലു, ഓദൌതോഃ കണ്ഠോഷ്ഠം, വകാരസ്യ ദന്തോഷ്ഠം, ജിഹ്വാമൂലീയസ്യ ജിഹ്വാമൂലം, നാസിക അനുസ്വാരസ്യ ഇതി ലഘുസിദ്ധാന്തകൗമുദ്യാമപി അസ്തി. തത്ര സ്ഥാനാനി ഇത്യുക്തേ ലഘുസിദ്ധാന്തകൗമുദ്യാം, തത്രൈവ തുല്യാസ്യ പ്രയത്നം സവർണം ഇതി സൂത്രേ പാണിനിശിക്ഷാശാസ്ത്രസംബന്ധ സ്ഥാന ഉത്പത്തി വർണോത്പത്തി സ്ഥാന വിഷയക സൂത്രാണി തത്രൈവ ദത്തം. ഇദാനീം അകൂഹ വിസർജനീയാനാം കണ്ഠഃ ഇത്യുക്തേ കിം ഇതി ജ്ഞാസ്, വയം ജാനീമഃ. അകൂഹ വിസർജനീയാനാം കണ്ഠഃ, പ്രഥമം തസ്യ കിഞ്ചിത് പദച്ഛേദം കുർമഃ. അകൂഹ വിസർജനീയാനാം കണ്ഠഃ കഥം തത്ര പദച്ഛേദഃ ഇത്യുക്തേ, അകൂ തത്ര അസ് അകൂഹ വിസർജനീയ ഇതി ചത്വാരഃ, ചത്വാരി പദാനി തത്ര സന്തി. സമസ്തം പദം ഏതത് അകൂഹ വിസർജനീയാനാം, അശ്ച കുശ്ച ഹശ്ച വിസർജനീയശ്ച അകൂഹ വിസർജനീയഃ, വിസർജതേ അകൂഹ വിസർജനീയാഃ, തേഷാം അകൂഹ വിസർജനീയാനാം ഇതി വിഗ്രഹവാക്യം ഭവതി. അകൂഹ വിസർജനീയാനാം കണ്ഠഃ, तत्र समासस्य अपेक्षया के वर्णाः अत्र संगृहीताः भवन्ति इति अस्माकं तत्र अवधानं तत्र भवितव्यं। कंठस्थानात्मक वर्णाः इत्युक्ते कंठ्याः वर्णाः के इति अस्माभिः ज्ञातव्यं भवति। तत्र अकूह विसर्जन्यानां कंठः प्रथमं तत्र प्रियदर्शिनी महाभागा पृच्छति विग्रहवाक्यं वदतु इति। प्रथमं तत्र वर्णानां एतत् कोष्टकं समाप्य पुनः विग्रहवाक्यम् अवश्यं वदामि। कंठः इत्यत्र के वर्णाः कंठस्थाने उत्पन्नाः भवन्ति इति प्रश्नः क्रियते चेत् अकारस्य इदानीं कति भेदाः सन्ति, अकारस्य कति भेदाः कृपया टैप् करोतु। अष्टादश, त्रयः। तदेव मया सुधारघुरामन् भगिनी अत्र त्रयः इति, वि एन् मीना भगिनी अपि त्रयः इति तत्र, यद्यपि अस्मिन् कोष्टकमध्ये मया त्रयः इति स्थापितं तथापि अस्माभिः अधीतम् अष्टादशभेदाः अकारस्य सन्ति। तत्र अकूहविसर्जनीयानां कण्ठः इति सूत्रे अकारस्य अष्टादशभेदाः स्वीक्रियन्ते। कु अकारस्य अष्टादशभेदाः, कु इत्यत्र कवर्गः, कु इत्युक्ते कवर्गः, ह इत्युक्ते हकारः, विसर्जनीयः विसर्जनीयः इत्युक्ते विसर्गः। एवम् अकूहविसर्जनीयानां कण्ठः इत्यत्र अकारस्य अष्टादशभेदाः, कवर्गः अष्टादश अकारस्य कवर्गस्य पञ्च, हकारः विसर्गः। एते वर्णाः कण्ठ्याः भवन्ति, कण्ठ्याः कण्ठस्थाने तेषाम् उत्पत्तिः भवति। तत्र विदुषां किञ्चित् विवादः भेदः इत्यादि विद्यन्ते, परन्तु वयम् अस्य ग्रन्थस्य अनुसरणं कुर्मः। वि एन् मीना भगिनी इदानीं पृच्छति, विसर्ग इस् नाट् अ लेटर्, सम्यक् उक्तम्। अयोगवाहाः तत्र अयोगवाहाः विज्ञेयाः आश्रयस्थानभागिनः इति पाणिनिशिक्षासूत्रम् अस्ति। इदानीं विसर्गः यदि अकारेण सह उच्यते चेत् अह इति भवति, यदि इकारेण सह उच्यते चेत् इहि इति भवति, उकारेण सह उच्यते चेत् उहु इति भवति। अयोगवाहानां स्थानं सदा अस्माभिः आश्रयस्थानभागिनः इति शिक्षासूत्रम् अपि अस्ति, प्रातिशाख्ये अपि एतत् सूत्रं विद्यते। एवं विसर्गस्य यदि अकारेण सहितः विसर्गः भवति तदा एव कण्ठस्थानं भवति तस्य, यदि इकारसहितः विसर्गः अस्ति तदा किं भवति, तस्य तालुस्थानमेव भवति। केन अस्माभिः ज्ञातम् इत्युक्ते तत्र अयोगवाहाः विज्ञेयाः आश्रयस्थानभागिनः इति एकं श्लोकम् अस्ति, तदाधारेण तत् शिक्षाशास्त्रे तदस्ति। एवं कण्ठः अकूहविसर्जनीयानां कण्ठः इति अस्माभिः एकं सूत्रम् अधीतम्। इचु यशानां तालु इत्यत्रापि इकारस्य अष्टादशभेदाः, यक चकारस्य चु इत्युक्ते सवर्गः, अनन्तरं यश इचु यशानां तालुस्थानम्। तालुस्थानं नाम किम् इति तत्र चित्रे अस्माभिः दृष्टं, तालुस्थानम् अस्ति। एते वर्णाः तालव्याः इति उच्यन्ते। एवं ऋटुरसानां मूर्धा इति ऋकारस्य तत्र अष्टादशभेदाः, टवर्गः रेफः षकारः मूर्धन्यषकारः, अत एव मूर्धन्यषकारः तालव्यषकारः इति अस्माभिः उक्तलेखनसमये तत्र उच्यते। यदा तत्र वर्णानां मध्ये भ्रमः यदि सञ्जायते इदानीं षण्मुख षण्मुखमिति षण्मुखमिति पदमस्ति तस्य कः शकारः इति पृच्छते चेत् अस्माभिः उच्यते मूर्धन्यशकारः इति. मूर्धन्यशकारो नाम षण्मुखः. शिवः इति शब्दे कः शकारः इति पृच्छते चेत् तालव्यशकारः इति अस्माभिः उच्यते. एवमेव वक्तव्यं वैयाकरणैः सदा. इदानीं शिवाशा अस्ति षण्मुखाशा अस्ति तद्वत् इति न वक्तव्यं. मूर्धन्यशकारः तालव्यशकारः इति वक्तव्यम्. इदानीं दन्तानां मध्ये अपि स एव सूत्रं विद्यते. लृटुलसानां दन्ताः उपूपद्मानीयानाम् ओष्टौ. एवमेव उपूपद्मानीयानाम् इत्यत्र उकारस्य अष्टादशभेदाः. पू इत्युक्ते पवर्गः. उपद्मानीयः इत्युक्ते पपाभ्यां प्राक् अर्धविसर्गः. कण्ठतालु एदैतोः कण्ठतालु सोऽपि एवमेव विद्यते. तत्र एदैतोः एदैतोः कण्ठतालु तत्र कण्ठस्थानमपि विद्यते तालुस्थानमपि विद्यते. एतस्य कण्ठोष्ठमित्यत्र ओदौतोः कण्ठोष्ठम्. ओदौतोः ओदौतोः नाम ओकारस्य भेदाः औकारस्य भेदाः. एवं नासिकानुस्वारस्य तत्र पञ्च अनुस्वारस्य नासिका. अनन्तरं यवम इत्येषामपि नासिका अस्ति. What is upadmaniya? Ardha visarga in front of pa, the letter pa and pha. Just like you have ha, for visarga you have two dots. For anuswara you have one dot above the letter. For visarga you have two dots by the side of the letter. For ardha visarga you have this, the symbol that is given there in oshthau ro, that is called upadhvaniya, and it is, it comes, it when it, it should occur only in front of pa and pha, pa or pha. Like for example tapah phalam, tapah phalam, tapah phalam. That tapah phalam, that ardha visarga symbol is called upadhvaniya. भूत्कारमिव. हा, कोदण्डरामन् महोदयः सम्यक् उक्तवान् भूत्कारमिव. पुनः पूरणी सम्यक् उक्तं. पुनः पूरणी बहु सम्यक् उक्तं. प्रियदर्शिनी महाभागा उक्तवती पुनः पूरणी इति उक्त सम्यक् उक्तम्. इदानीं पुनः पुनः अस्तु. पुनः पुनः तत्रापि उपद्मानीयः एव भवति. सम्यक् सम्यक् उक्तम्. अनुराधा भगिनी सम्यक् उक्तवती. हा, इदानीं कण्ठतालु कण्ठोष्ठं नासिकानुस्वारस्य दन्तोष्ठं वकारस्य दन्तोष्ठं जिह्वामूलीयस्य जिह्वामूलं. जिह्वामूलीयः नाम अर्धविसर्ग कखाभ्यां प्राक् अर्धविसर्गः. जिह्वामूलीयः इति उच्यते. कखाभ्याम् इत्युक्ते अन्तःकरणं. कः क्रीडति एवं कः क्रीडति इत्यादि अन्तःकरणम् इत्यादि शब्दाः. इदानीम् एतद् ज्ञात्वा इदानीं वयं कुत्र स्मः? तुल्यास्य प्रयत्नं सवर्णं सूत्रे स्मः. अस्माभिः ताल्वादिस्थानम् आभ्यन्तरप्रयत्नश्च यस्य वर्णस्य वर्णजालस्य ये यस्य येन येन वर्णेन तुल्यं भवति तत् परस्परं सवर्णसंज्ञको भवति इति अस्माभिः अत्र वृत्तिः ज्ञाता. परन्तु इदानीं कानि तत्र स्थानानि, कण्ठादिस्थानानि ताल्वादिस्थानानि नाम किं, तत्र के के वर्णाः कुत्र उत्पन्नाः भवन्ति इत्यादि ज्ञानम् इदानीमेव प्राप्तम्। तत्र इदानीं ताल्वादिस्थानम् इत्यस्य अर्थः अस्माभिः ज्ञातः। वर्णोत्पत्तिस्थानानि अकूहविसर्जनीयानां कण्ठः, इचुयशानां तालु, ऋतुरसानां मूर्धा, ऋतुलसानां दन्ताः, उपूपध्मानीयानाम् ओष्टौ, उपूपध्मानीयानाम् ओष्टौ, यमगणनानां नासिका च, यदैतोः कण्ठतालु, ओदौतोः नासिका च इति किमर्थं तत्र मुत्तुलक्ष्मी भगिनी पुनः पुनः वक्तुं प्रयत्नं करोति? नासिका च तत्र इदानीं तत्र वर्गस्य पञ्चमवर्णाः सन्ति, तेषामपि इदानीं ख ख ग घ ङ तस्य पञ्चमवर्णः, पञ्चमवर्णस्य वर्गीयव्यञ्जनानां पञ्चमवर्णस्य स्थानं किम्? तत्र उच्यते, तदा उच्यते तेषां कण्ठस्थानमपि अस्ति, नासिकास्थानमपि अस्ति, अत एव नासिका च इति उच्यते। इदानीं यमगणनानां नासिका च इत्युक्ते तेषां तत्तद्वर्गीयस्थानमपि अस्ति, नासिकास्थानमपि अस्ति, अतः यमगणनानां नासिका च इति चकारः तत्र योजितः, सम्यक् ज्ञापितं भवति। तत्र मुत्तुलक्ष्मी भगिनी सम्यक् ज्ञापितवती, नो चेत् अहं प्रायः विस्मरामि स्म। यमगणनानां नासिका च, सर्वैः अवगतं वा कथं तत्र इदानीं वर्गीयव्यञ्जनानां मध्ये पञ्चमवर्णस्य स्थानं किम् इति प्रश्नः? पञ्चमवर्णस्य स्थानं तत्तद्वर्गीयस्थानमपि अन्नासिका अपि। सम्यक् सम्यक् सम्यक्, अस्तु, सम्यक् सम्यक् ज्ञातम्। इदानीं चित्रमपि ज्ञातं, स्थानानि अस्माभिः ज्ञातं, तर्हि प्रयत्नः नाम कः? स एव इदानीं ज्ञातव्यम्। इदानीं प्रयत्नः नाम तत्र यत्नः, यत्नः इत्युक्ते चेष्टा, अस्माभिः किमपि यत्नः क्रियते इत्युक्ते अस्माभिः क्रिया किञ्चित् आचर्यते, आयासः, चेष्टा, अयमेव यत्नः इति कथ्यते। इदानीं शब्दप्रयोगस्य यदा इच्छा भवति तदा किं भवति? अस्माकं शरीरे एकम् अग्निः भवति, तत्र जाठराग्निः इति तत्र वैदिकाः वदन्ति, कायाग्निः इति वयमपि वदामः लौकिकाः। तत्र द हीट्, कायाग्नि, द हीट् आफ् दि बाडि, तदा कायाग्निना नाभिदेशात् प्रेरितः वायुः किं करोति? ऊर्ध्वम् आक्रमन्। इदानीम् इच्छा भवति, मम प्रयत्नः इति शब्दस्य उच्चारणं कर्तुम् इच्छा भवति, व्याकरणम् इति शब्दस्य उच्चारणं कर्तुं मम इच्छा भवति, तदा किं भवति? किं भवति? नाभिदेशात् प्रेरितः प्राणवायुः ऊर्ध्वम् आक्रमन् मूर्धापर्यन्तं गत्वा प्रतिनिवृत्तः भवति, इट् विल् रिटर्न्। सः वायुः किं भवति? अण्ड् इट् विल् हिट् दि आस्य, इट् विल् हिट् दि आस्य। आस्या इस् वाट् प्राक् काकलात् कण्ठपर्यन्तं, तदे स एव कण्ठात् मुखम् आस्यम्, इट् विल् हिट् दि मुख एण्ड् इट् विल् जनरेट् दि सौण्ड्स्, ध्वनि। एण्ड् वेन् एवर् इफ् यु वाण्ट् टु प्रोनौन्स् ककार, इट् विल् हिट् दि कण्ठ। इफ् यु वाण्ट् टु प्रोनौन्स् तकार, सः तत्तत्स्थानम् आगत्य आहत्य वर्णान् अभिव्यनक्ति, इत्युक्ते इट् कम्स् अण्ड् बौन्सस् देर्, तदा एव उत्पत्तिः, वर्णानाम् उत्पत्तिः भवति। अत्र किं भवति? वर्ण यदा प्राणवायुः ऊर्ध्वम आक्रमन मूर्धा पर्यंतं गत्वा प्रतिनिवृत्तो भूत्वा मुखं प्राप्य कंठादि स्थानानि आहत्य इत्युक्ते प्रवेशं कृत्वा तत्र यदा वर्णानाम् अभिव्यक्तिः अभिव्यञ्जनं भवति तदा गल विवर विकासादीन् करोति। तत्र गल इत्युक्ते त्रोट् तत् गल विवर किञ्चित् व्यत्यासं व्ययं जनयति। वस्तुतः तत्र जिह्वाग्रमध्यमूल जिह्वाग्र जिह्वामध्य जिह्वाग्रभागः जिह्वामध्यभागः जिह्वामूलभागः। पुनः तच्चित्रं पश्यामः, जिह्वा अस्ति, इदानीं जिह्वा इति अस्माभिः स्थापितमत्र। जिह्वा तु किञ्चित् एवम् एतावत् किञ्चित् लेन्त् अस्ति, जिह्वायाः दीर्घता अस्ति। जिह्वा अग्रभागः मध्यभागः जिह्वामूलभागः। एतत् कण्ठादिस्थान अभिघातार्थं गलविवरविकासाद्यर्थं वायोः सहायभूता क्रिया यदा भवति तदा एव प्रयत्नः इति उच्यते। इदानीं तत्र अत्र अस्माकं तर्हि प्रयत्नो नाम विशेषप्रयत्नः किञ्चिदस्ति वा, यत्नः प्रयत्नः इति किमर्थम् उच्यते चेत् तदग्रे वयं वदामः। प्रयत्नः द्विप्रकारकः भवति, आभ्यन्तरः बाह्यः च। इदानीं पुनः तत्तुल्यास्य प्रयत्नं सूत्रं प्रति आगत्य सवर्णसंज्ञकोपकारकं प्रयत्नं किम् इति पश्यामः। ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः यस्य वर्णस्य, ताल्वादिस्थानम् इत्युक्ते स्थानम् आभ्यन्तरप्रयत्नः, एतद् यदि समानं भवति अन्यवर्णेन परस्परं तौ वर्णौ सवर्णसंज्ञकौ स्याताम् इति सूत्रार्थः आगच्छति। इदानीं पुनः अत्र प्रयत्नो नाम द्विप्रकारः, आभ्यन्तरः बाह्यः च। प्रथमम् आभ्यन्तरप्रयत्नं वयं पश्यामः। आभ्यन्तरप्रयत्नो नाम कः? आभ्यन्तरप्रयत्नः इदानीम् आभ्यन्तरप्रयत्नः तत्र लघुकौमुद्यां किम् अस्ति इति पश्यामः। यत्नो द्विधा, आभ्यन्तरः बाह्यश्च, आद्यः पञ्चदा इत्युक्ते किमपि पञ्चभागः कृतः, स्पृष्टः, ईषत् स्पृष्टः, ईषद्विवृतः, विवृतः, संवृतः इति पञ्चभेदाः सन्ति आभ्यन्तरप्रयत्नस्य। तत्र स्पष्टं स्पृष्टं प्रयत्नं स्पर्शाणां, स्पर्शाणाम् इत्युक्ते वर्गीयव्यञ्जनाः स्पर्शाः। तत्र स्पर्शाः नाम के इति पृष्टवती भगिनी, स्पर्शाः इत्युक्ते वर्गीयव्यञ्जनाः। तद् कुत्र उच्यते? अग्रे उच्यते, लघुकौमुद्यामेव अग्रे उच्यते। स्पष्टं प्रयत्नं स्पर्शाणाम्, ईषत् स्पृष्टम् अन्तस्थानाम्, ईषद्विवृतम् ऊष्मणाम्, विवृतं स्वराणाम्, ह्रस्वस्य अवर्णस्य प्रयोगे संवृतं, प्रक्रियादशायां तु विवृतमेव। इदानीम् एतत् सर्वम् एकस्मिन् कोष्टके तत्र सङ्गृहीतम्। आभ्यन्तरप्रयत्नाः पञ्च, तेषां नामानि कानि इत्युक्ते स्पृष्टः, ईषत्पृष्टः, ईषद्विवृतः, विवृतः, संवृतः। के के वर्णाः कुत्र तस्य प्रयत्नं कीदृशं भवति इत्युक्ते वर्गीयव्यञ्जनानां स्पृष्टप्रयत्नम् इति उच्यते। यरल अन्तःस्थानाम् ईषत्स्पृष्टम् इति उच्यते। ऊष्मणाम् ईषद्विवृतम् इति उच्यते। स्वराणां विवृतम् इति उच्यते। अकारस्य, केवलम् अकारस्य प्रयोगे इत्युक्ते इदानीं प्रयोगः अस्ति, रामः गच्छति, रामः गच्छति इत्यत्र प्रयोगः अस्ति। मकारोत्तर अकारः अस्ति, मकारोत्तर अकारः प्रयोगे संवृतं भवति। परन्तु प्रक्रियादशायाम् इदानीम् अकारः विवृतमेव, तदेव उच्यते। तत्र स्पष्टं प्रयत्नं स्पर्शाणाम्, ईषत्स्पृष्टम् अन्तःस्थानाम्, ईषद्विवृतम् ऊष्मणाम्, विवृतं स्वराणाम्, ह्रस्वस्य अवर्णस्य प्रयोगे संवृतम्, प्रक्रियादशानां तु विवृतमेव। इति इदानीम् आभ्यन्तरप्रयत्नानां विषये इदानीम् अस्माभिः ज्ञातम्। पुनः किञ्चित् ज्ञास्यामः आभ्यन्तरप्रयत्नः इति तस्य नाम किमर्थम्। ओष्ठदेशादारभ्य आस्यमिति प्राक्कालकपर्यन्तम् आस्यमिति उच्यते। आस्ये स्थितानां स्थानानाम् अभिघातकाः प्रयत्नाः आभ्यन्तरप्रयत्नाः इति उच्यन्ते। आस्यस्य अन्तर्गतत्वात् एतेषाम् आभ्यन्तरप्रयत्नम् इति नाम आगच्छति। इत्युक्ते मुखविवरात् बहिरागमनात् पूर्वम् इदानीं वक्ता श्रोता इति एकः पुरुष द्वौ पुरुषौ भवतः वक्ता श्रोता इति वक्ता उच्चारणस्य इच्छया सः वक्तुम् आरभ्यते। तदा किं भवति वायुः प्राणवायुः मूर्धापर्यन्तं गत्वा पुनः प्रतिनिवृत्य कण्ठस्कण्ठादिस्थानमध्ये आगत्य पुनः तदा एव आभ्यन्तरप्रयत्नः किञ्चित् यत्नेन आभ्यन्तरप्रयत्नेन वर्णस्य अभिव्यञ्जनं भवति। आभ्यन्तरप्रयत्नः इति एतस्य किमर्थमुच्यते इत्युक्ते आस्ये एतेषां स्थानमध्ये एव एतेषां यत्नः भवति। अयञ्च प्रयत्नः मुखस्य अन्तर्वर्तिनि भागे एव भवति। अतः बाह्यप्रयत्नः बाह्यप्रयत्नेभ्यः पूर्वमेव भवति। वस्तुतः एषः एव प्रकृष्टत्वम्। अतः प्रयत्नः इति तत्र सूत्रे तुल्यास्य प्रयत्नं सवर्णं तुल्यास्य यत्नं सवर्णम् इति न उक्तं, तुल्यास्य प्रयत्नं सवर्णं प्रकृष्टो यत्नः प्रयत्नः। तत्र उत्तरभारते भीमसेनाचार्यः इति एकः महान् वैयाकरणः अस्ति, सः वदति प्राक्तनो यत्नः प्रयत्नः। तत्र किं भवति अस्माभिः सवर्णसंज्ञा कृते आभ्यन्तरप्रयत्नानामेव उपयोगः क्रियते न तु बाह्यप्रयत्नानाम्। अतः प्राक्तनः यत्नः आभ्यन्तरप्रयत्नः एव स एव अत एव प्रयत्नः। अत्र प्रयत्नो नाम आभ्यन्तरप्रयत्नोऽपि स्वीकर्तुं शक्यते बाह्यप्रयत्नोऽपि स्वीकर्तुं शक्यते। तुल्यास्य प्रयत्नं सवर्णम् इत्यत्र प्रयत्नशब्देन अस्माभिः कः प्रयत्नः स्वीकर्तव्यः इति प्रश्नः। तदा प्रयत्नशब्दस्य व्युत्पत्तिं पश्यामः। तत्र प्रकृष्टो यत्नः प्रयत्नः इति एकः व्युत्पत्तिः एका व्युत्पत्तिः। प्रकृष्टो यत्नः प्रयत्नः इत्यत्र प्रकृष्टो नाम प्रकृष्टः कः, प्रकृष्टो भागः अस्य यत्ने कः इत्युक्ते तत्र बाह्यप्रयत्नेभ्यः पूर्वमेव एतेषां प्रयोगः भवति स एव प्रकृष्टः इति वक्तुं शक्यते। तदापि द्वितीयव्युत्पत्तिः अस्ति प्राक्तनो द्वितीयव्युत्पत्तिः प्राक्तनो यत्नः इति अस्ति प्रयत्नः। प्राक्तनो यत्नः इत्युक्ते पुनः स एव तात्पर्यम् आगच्छति। बाह्यप्रयत्नेभ्यः पूर्वमेव एतेषां यत्नः भवति। अतः एतस्य प्राक्तनो यत्नः इत्यपि व्युत्पत्तिः दर्शयितुं शक्यते। वस्तुतः तत्र आभ्यन्तरप्रयत्न बाह्यप्रयत्नयोः भेदः इत्युक्ते वक्ता श्रोता द्वौ भवतः। अत्र वक्तुः एव अनुभवगम्यम् आभ्यन्तरप्रयत्नः, यतोहि आस्ये एव अस्य स्थानस्य उत्पत्तिः भवति। सर्वे व्यापाराः वक्तुः मुखस्य आभ्यन्तरे एव जायन्ते, आभ्यन्तरप्रयत्नो नाम स एव अत्र विशेषः। एतत् ज्ञात्वा वयं बाह्यप्रयत्नो नाम कः इति जानीमः। बाह्यप्रयत्नः अपि यत्नस्य द्वितीयप्रकारः अस्ति। इदानीम् अत्र किं भवति इत्युक्ते आस्य बहिर्भूतत्वात् एतस्य बाह्यप्रयत्नः इति नाम अस्ति। इदानीम् आस्य बहिर्भूतत्वं नाम किम्? अस्मिन् चित्रे यद् अस्माभिः आस्यं नाम एतावत् कर्व् यदस्ति the cup, the cup or the curve that exists between the lips to the throat, and that portion, that cup, that is called Oshta Prabhati Prakakalam. Oshtar Prabhati Kakala Bahirbhutam Yadasti Yatkimapi Prayatnahasti Sayeva Bahya Prayatnaha Iti Uchyate. Idani Bahya Prayatnaha Kati Santi Ekadashada Bahya Prayatnaha Ekadashada Vivaraha Sambaraha Shvasaha Nadaha Goshaha Agoshaha Alpapranaha Mahapranaha Udatta Svaritascheti Yete Bahya Prayatnaha Tatra Ekaspin Table Madhya Sangrihitaha. Viva idanim kakharasya kaha prayatna hai chukte vivaraha prayatna api asti shwasa prayatno api asti aghosha prayatno api asti evam yete varnaha atra yeteshu bahya prayasya sangrihitaha yetat koshtakam asmabhi drashtum shakyate vivara shwasa aghoshaha chukte kharvarnanam karkasha vyanjananam vivara shwasa aghoshaha अतः एव तेषां कर्कशव्यञ्जनानि इति उच्यन्ते. संवारनादघोषः हषां मृदुव्यञ्जनानां. मृदुव्यञ्जनानि इत्युक्ते तृतीयचतुर्थपञ्चमवर्णाः यानालवाः एते एव हश्च. हश् प्रत्याहारेण मृदुव्यञ्जनानि व्यवह्रियन्ते. खर् प्रत्याहारेण कर्कशव्यञ्जनानि व्यवह्रियन्ते. एतेषां प्रयत्नं प्रयत्नः विवारश्वास अघोषः संवारनाद घोषः हशाम् अल्पप्राणाः इति एकः अन्यः प्रयत्नः अपि अस्ति. क ख ग च च झ एतेषां तत्र वर्गानां प्रथमतृतीयपञ्चमानाम् अल्पप्राणाः. महाप्राणाः इत्युक्ते च द्वितीयचतुर्थानां षषसाहानामपि महाप्राणः उच्यते. तत्र अस्माभिः वर्गीयव्यञ्जनानामेव अल्पप्राण महाप्राण इति अस्माभिः न द्रष्टव्यम्. तत्र यरलवः यरलव इत्यस्य अल्पप्राणप्रयत्नः, श षसः इत्यस्य महाप्राणप्रयत्नः. इदानीम् एतेषां विषये किञ्चित् जानीमः. तत्र संवारः विवारः 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 इत्युक्ते कः इत्युक्ते तत्र कीदृशः व्यापारः भवति इत्युक्ते वर्णोच्चारणसमये यदि आस्यस्य विवारः ओपनिङ्ग् विवारः इट् गेट्स् लिटिल् बिट् ओपन्ड् वेन् विवारः वर्णोच्चारणसमये आस्यस्य विवरणमेव विवारः इति उच्यते. विवरणं नाम किं? किञ्चिदिव उन्मीलनं, स एव विवारः इति उच्यते. इदानीं संवारः नाम वर्णोच्चारणसमये वर्ण यदा किञ्चिदिव क्लोज् भवति, यदि संवारः वर्णोच्चारणसमये आस्ये किञ्चित् काण्ट्राक्षन् एक्स्पान्शन् अण्ड् काण्ट्राक्षन् एतदेव समीचीनं पदम् आङ्ग्लभाषायां. विवारः नाम एक्स्पान्शन्, संवारः नाम काण्ट्राक्षन्. इफ् देर् इस् अ स्लैट् expansion when the letters are being pronounced, then it is called vivara. If there is slight contraction, it is called samvara. Nada and shwasa. Nada is when we pronounce certain things with gambhirya. Idanim gha ityukte ekam gambhiryam agacchati uchcharana samaye, sa eva nada iti uchyate. Evam shwasasya इदानीं थ, देर् इस् सम् अमौण्ट् आफ् एयर् विच् इस् पासिङ्ग् वेन् यु प्रनौन्स् द श्वा थ थ थ, दट् एयर् पासिङ्ग् ईस् काल्ड् अ श्वास. वर्णोच्चारणसमये यदा श्वासः श्वासस्य यत्नः यदि किञ्चिदस्ति तदा एव श्वासः इति उच्यते. घोष अघोष इत्यस्य यदि घोष इत्युक्ते वर्णोच्चारणसमये यदा घोषः भवति तदा घोषः इति उच्यते. अघोषः भवति चेत् इत्युक्ते घोषः इत्युक्ते इदानीं नु इत्यस्य किमपि गूञ्ज् तत्र हिन्दीभाषायाम् उच्यते, गूञ्ज् इति उच्यते. यदि गूञ्ज् इत्युक्ते इफ् यु हियर् गूञ्ज् तदा घोषः इति उच्यते. अल्पप्राण महाप्राण तो सर्वैः ज्ञायते. वर्णोच्चारण समये प्राणवायुः यदा प्राणवायोः अल्पः प्रयोगः भवति तदा अल्पप्राणः, यदा प्राणवायोः किञ्चित् अधिकप्रयोगः भवति तदा महाप्राणः इति एव किञ्चित् एतत् सम्यक् अस्माभिः शिक्षाशास्त्रे शिक्षाशास्त्रे लक्षणानि भवन्ति. विवारस्य लक्षणं भवति, अल्प संवारस्य लक्षणं भवति. तत् शिक्षाशास्त्रात् अस्माभिः ज्ञातव्यं. प्रातिशाख्ये अपि सम्यक् उक्तम् एतत्. परन्तु किञ्चिदिव ज्ञात्वा अग्रे गच्छामः. एवं बाह्यप्रयत्नः एकादशधः इति अस्माभिः ज्ञातम्. एतदेव टेबल् मध्ये सङ्गृहीतमस्ति. उदात्त अनुदात्त स्वरितः तर्हि स्वराणां किञ्चित् बाह्यप्रयत्नो भवति वा? तत् स्वराणां विषये अस्माभिः ज्ञातम्. उदात्तस्वरः अनुदात्तस्वरः स्वरितस्वरः स तत्र स बाह्यप्रयत्ने एव आगच्छति. तद् उच्चैरुदात्तः नीचैरनुदात्तः समाहारस्वरितः इति ज्ञातम्. इदानीं पुनः लघुकौमुदीकारः किं वदति? कादयो मावसानाः स्पर्शाः. इदानीं स्पर्शाः इत्युक्ते किं कः के वर्णाः इति भगिनी पृष्टवती. कादयो मावसानाः स्पर्शाः. अत्रैव लघुकौमुदीकारः वदति कादयो मावसानाः, कादिमावसानपर्यन्तं स्पर्शाः. इदानीम् एतेषां स्पर्श इति कथं नाम आगतम् इत्युक्ते एतेषाम् उच्चारणसमये कदाचित् जिह्वायाः स्पर्शः भवति, अतः एतेषां स्पर्श इति स्पर्श इति उच्यते. यणः अन्तस्थाः. यणः इत्युक्ते यवरल तत्तु अस्माभिः अन्तस्थाः. इदानीम् एतेषाम् अन्तस्थ इति कथं नाम इत्युक्ते स्वराणां स्वराणां व्यञ्जनानां मध्ये माहेश्वरसूत्राणां मध्ये स्वरव्यञ्जनयोः मध्ये एतेषां स्थानं विद्यते. अतः तत्र आङ्ग्लभाषायामपि अन्तस्थाः इत्यत्र सेमि वोवेल्स् इति वदन्ति. एतद् वोवेल्स् इति नास्ति, तत्र वोवेल्स् वा कान्सनेण्ट्स् वा इति इत्युक्ते एतेषाम् अन्तस्थाः इत्युक्ते स्वराणां व्यञ्जनानां मध्ये एतेषां स्थानं तत्र माहेश्वरसूत्राणां विद्यते. अतः अन्तस्थाः इति प्रायः तदेव मया चिन्त्यते. शलः ऊष्माणः. तत्र ऊष्माणः इत्यत्र तत्र तत्र यदा शशसः इति एतेषां वर्णानां यदा उच्चारणं भवति तदा उष्णं वायुः कदाचित् आगच्छति. वायुः उष्णः भवति इति ऊष्माणः इति तत्र इदानीं मया उक्तं किल कायाग्निना प्रेरितः वायुः. इदानीं कायाग्निना द हीट् बाडि हीट् तः द्वारा प्रेरितः वायुः किञ्चित् औष्ण्यं तस्य वायुमध्ये भवति. औष्ण्यं स्वीकृत्य यद् आगच्छति शशसः वर्णानाम् उच्चारणसमये तद् औष्ण्यस्य उपयोगः किञ्चित् अधिकं भवति. अतः ऊष्माणः इति उच्यन्ते इति शास्त्रकाराः वदन्ति. इदानीम् एतेषां किञ्चित् सम्यक् अस्माभिः ज्ञानं प्राप्तव्यम् इत्युक्ते शिक्षाशास्त्रमेव गन्तव्यं. मया यद् मया ज्ञायते तदेव मया उच्यते. मया शिक्षाशास्त्रं यावदपेक्षितं तावदेव पठितम्. अचः स्वराः एतत्तु ज्ञायते. अचः स्वराः कख इति ककाभ्यां प्राक् अर्धविसर्गसदृशो जिह्वामूल्यः. एतत्तु भवद्भिः पूर्वमेव पृष्टं, मया पूर्वमेव उत्तरितं. जिह्वामूल्यः पफाभ्यामिति पफाभ्यां प्राक् अर्धविसर्गसदृशः उपद्मानीयः. अम् अह इत्यचः परौ अनुस्वारविसर्गौ. अचः परौ इत्येव तत्र अचाम्येव परः भवन्ति ते अनुस्वारविसर्गौ. इति उक्तम्। तत्र मया एका पंक्तिः मध्ये त्यक्तम्, लृलृ वर्णयोः मितस्सावर्ण्यं वाच्यम् इति। लृलृ वर्णयोः मितस्सावर्ण्यं वाच्यम्, इदानीं सवर्णसंज्ञा केषाम् इत्युक्ते, पुनः तुल्यास्य प्रयत्नं सवर्णम् इत्यस्य सूत्रार्थं पश्यामः। ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः यस्य वर्णस्य येन वर्णेन सह तुल्यं भवति, तौ वर्णौ परस्परौ सवर्णसंज्ञकौ स्याताम् इति वयं वदामः। एतदनुसारेण इदानीम् अस्माभिः स्थानं प्रयत्नम् एतत् सर्वं ज्ञात्वा के के वर्णाः सवर्णाः इत्युक्ते, अज् हलां मध्ये तत्र नाज्झलौ इति एकं सूत्रमस्ति, तत्तु लघुकौमुद्यां नास्ति, परन्तु अग्रे आगच्छति तत्, तदग्रे एव वयं ज्ञास्यामः। इदानीं ऋकार लृकारयो मध्ये सावर्ण्यं केन सूत्रेण, तदा वार्तिककारः अस्माकं साहाय्यं करोति। तत्र वार्तिकस्य लक्षणम् अस्माभिः ज्ञातम्, उक्त दुरुक्तानां यत् वाक्यम् उच्यते स एव वार्तिकमिति उच्यते। अत्र पाणिनिना ऋकार लृकार विषये सः किञ्चित् अवधानं न दत्तवान् पाणिनिः। अत्र तदा वार्तिककारः वदति, हे जनाः, हे तत्र हे शिष्याः, कृपया लृकार ऋकार लृकारयोर्मध्ये सावर्ण्यं कृपया स्थापयतु। तर्हि एतेषाम् इदानीम् अकारस्य आकारस्य सा अकारः अकारस्य स्थानं कण्ठस्थानं प्रयत्नश्च विवृतप्रयत्नः। तर्हि आकारस्यापि कण्ठः विवृतः, तर्हि अकार आकारौ परस्परसवर्णौ इति आगतौ। इदानीं ऋकार लृकारयोर्मध्ये केन सूत्रेण सावर्ण्यं स्थाप्यते इति प्रश्ने कृते, लृलृ वर्णयोर्मिथस्थावर्ण्यं वाच्यम् इति वार्तिकेन ऋकार लृकारयोः सावर्ण्यम् अस्माभिः स्थाप्यते। अस्य व्याख्यानं किम् अस्ति इत्युक्ते, लृलृ वर्णौ परस्परौ सवर्णौ स्तः। एतस्य उपयोगं तत्र यूसेज् सन्धिकार्ये अस्माभिः द्रष्टुं शक्यते, सन्धि असन्धिप्रकरणे अस्माभिः उच्यते। अद्य अस्माभिः सवर्णविषये सवर्णसंज्ञा नाम का इति अस्माभिः ज्ञातं, तुल्यास्य प्रयत्नं सवर्णम्, एतदेव अयमेव सङ्ग्रहः। इफ् दि उत्पत्तिस्थान आफ् लेटर् ए अण्ड् उत्पत्तिस्थान इस् ईक्वल् टु उत्पत्तिस्थान आफ् लेटर् बि अण्ड् आभ्यन्तरप्रयत्न आफ् लेटर् ए इस् ईक्वल् टु आभ्यन्तरप्रयत्न आफ् लेटर् बि, ए ईस् सेट् टु बि अ सवर्ण आफ् बि अण्ड् बि इस् अ सवर्ण आफ् ए, एषः एव सङ्ग्रहः। आभ्यन्तरप्रयत्नो नाम अस्माभिः पञ्चधा इति अस्माभिः अधीतम्, स्थानानि षट् स्थानानि अस्माभिः अधीतं, के के वर्णाः कुत्र अन्तर्भवन्ति इति अधीतम्। एतेभ्यः भिन्नाः वर्णाः सदा असवर्णाः भवन्ति। इदानीं पुनः एकवारं पठामः, तुल्यास्य प्रयत्नं सवर्णं, ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च, एतद्वयं यस्य येन तुल्यं तन्मितस्सवर्णसंज्ञं स्यात्। लृलृ वर्णयोर्मितस्सावर्ण्यं वाच्यम्, अकूहविसर्जनीयानां कण्ठः, एतत् सर्वम् अस्माभिः पठितं। यत्नो द्विधा आभ्यन्तरो बाह्यश्च, आद्यः पञ्चधा, तत्र स्पष्टं प्रयत्नं स्पर्शानाम्, एतत् सर्वम् अस्माभिः पठितम्। अम्मः इत्यस्य परौ अनुस्वारसर्गौ। पुनः भवन्तः तर्हि समानस्थानेन समानप्रयत्नेन वा आभ्यन्तरप्रयत्नेन वा सवर्णम् इति वा, आम् सवर्णम् इति उच्यते, तदा किं भवति, अकारककारयोः न भवति, तत्र स्वराणां हल् अचां हलां मध्ये सावर्णस्य केचन नियमाः सन्ति, तत् अग्रे आगच्छति, असन्धिप्रकरणे आगच्छति। नाज्झलौ इति एकम् अन्यत् सूत्रमपि अस्ति, तद्विषये अग्रे जानीमः। इदानीं तुल्यसवर्ण द्वौ वर्णौ सवर्णसंज्ञकौ इति अस्माभिः वक्तव्यं चेत्, தயோக வர்ணயோக உற்பத்தி ஸ்தானம் ஆபியந்தர பிரயத்ன சமானம் பவித்தவியம் ததாயவ சமானே பவித்தவ்யே ததாயவ தௌ சவர்ண சஞ்ஞகௌ பவதஃ பரஸ்பரம். இதானி மத்திய அத்தைவ சமாபயாமஹ மயா தத்ர சமய சமயஹ ஏவன திருஷ்டஹ அதஹ கிருபயா க்ஷம்யதாம். தச நிமிஷம் அதிகம் அபவத், கிருபயா க்ஷம்யதாம். பஞ்ச நிமிஷ விலம்பஹ அபி அபவத், கிருபயா க்ஷம்யதாம். இதானி ஏகம் இம்பார்ட்டன்ட் அனௌன்ஸ்மெண்ட் அஸ்தி. தத்ர அஹம் தத்ர கிஞ்சித் நகராந்தரே நகராந்தரம் கமிஷ்யாமி. தத்ர கும்பகோணம் மத்தியே பாகவத பாராயணார்த்தம் தத்ர கமிஷ்யாமி. அதஹ சதுர்விம்சதி தினாங்கதஹ ஏக தினாங்க பர்யந்தம் அஹம் ந பவாமி பெங்களூர் நகரே. அதஹ தத்ர இன்டர்நெட் கனெக்ஷன் கிராமே தத்ர ரிலையன்ஸ் சம்யக் நாஸ்தி இதி மயா ஸ்ருதம். தத்ர பிராட்பேண்ட் கனெக்ஷன் நாஸ்தி. அதஹ அக்ரிம கக்ஷா செப்டம்பர் சதுர்த்தே தினாங்கே பவதி. அஹம் புனஹ மெயில் பிரேஷயாமி ததாபி சூச்சயாமி. அக்ரிம கக்ஷா செப்டம்பர் சதுர்த்தே ஆம் பகினி அஹம் புனஹ மெயில் த்வாரா சூச்சயாமி. ட்வெண்ட்டி ஃபோர் செப்டம்பர். ட்வெண்ட்டி ஃபோர் செப்டம்பர் கிமர்த்தம் அஹம் து செப்டம்பர் ஃபோர்த் அக்ரிம கக்ஷா இதி வதன் அஸ்மி. அக்ரிம கக்ஷா ஃபோர்த் செப்டம்பர். தாவத் பர்யந்தம் ஹோம்வொர்க் கிம் இத்யுக்தே துல்யாஸ்ய பிரயத்னம் சவர்ணம் இத்யஸ்ய விருத்திஹி யதஸ்தி தத் கண்டஸ்தீகரணீயம் சர்வைஹி. விருத்திஹி அகூஹ விசர்ஜனீயானாம் கண்டஹ அத்ர யத்கிமபி அஸ்தி அம்மஹ இத்யசஹ பரோ அனுஸ்வார விசர்கோ தத் கண்டஸ்தீகரணீயம் சர்வைஹி. கிஞ்சித் டேபிள் சர்வம் புஸ்தகே அஸ்தி ஏதத் அஹம் ஸ்வஹ ஏவ ஸ்தாபயாமி ஏதஸ்ய பிரசன்டேஷன் ஏதத் த்ருஷ்ட்வா கிருபயா கிஞ்சித் அபியாசம் குர்வந்து கிஞ்சித் மயா வேகேன பாடிதம் இதி பாதி கிஞ்சித் சம்யக் படந்து இதி பிரார்த்தயே. மங்களாசனம் கிருத்வா சமாபனம் குர்மஹ ஏனாக்ஷர சமாம் நாயம அதிகம்ய மகேஸ்வராத் கிருஷ்ணம் வியாக்கரணம் ப்ரோக்தம் தஸ்மை பாணினே நமஹ. வாக்கியகாரம் வரருச்சிம் பாஷ்யகாரம் பதஞ்சலிம் பாணினிம் சூத்திரகாரம் ச பிரணதோஸ்மி மந்திரயம். நத்வா சரஸ்வதீம் தேவீம் சுத்தாம் குண்யாம் கரோம்யஹம் பாணினீய பிரவேசாய லகு.